सुधामयीं जगदधिष्ठात्रीं सदा पोषकीं सस्यारण्यनदीनदादिवसुरूपां अन्नदां धारुणीं क्षुद्बाधा परिहारिणीं सकलभूतां
धान्यलक्ष्मी मन्नदायिनी प्रार्थये पुण्यसंपादिनी पूर्णां प्रसन्नां